ಪ್ರತಿಗುಂಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತಿ ವಾಜೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮ ವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಪ್ಯಾಮುತ ತೇ ನಮಃ ಯಾತಯುಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನು ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಳಯ ಯಾಕೇ ರುದ್ರ ಶಿವಾತನೋರ ಘೋರ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಶಾಕಶಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೆ ವಿವಶ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರುವಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇ ನವಚತಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯತಾ ನಃ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚ ಜದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂಜಂಬಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ವಪ್ರಸ್ವ ಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರತ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳೈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಯೋಹಿತಃ ಉತೈಲಂ ಗೋಪಾ ಅದೃಷನ್ನದೃಷನ್ನದಹಾರ್ಯಃ ಉತೈಲಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ನಮಃ ಪ್ರಮಂಚ ಧನ್ವನಸ್ವಮುಭಯೋರಾದ್ಯೋರ್ಜಾಂ ಯಾಶ್ಚ ತೇ ಅಸ್ತ ಇಷವಃ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯು ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನ ಶೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿ ಯಾತೆ ಹೇತಿರ್ವಿದುಷ್ಟವಾಸ್ತೆ ಬಭೂವತೆ ಧನು ತಯಸ್ಮಾನ್ ವಿಶ್ವದಸ್ವಮ ಯಕ್ಷ್ಮಯ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾತತಾಯ ಧೃಷ್ಣವೇ ಉಪಾಪ್ಯಾಮುತ ತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಮೃಳಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯೈಷ್ವದಿತ್ತವಾರೆ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾ ಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯ ಭಾವೇಸೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ tasme jayate shrimate patinam vadaye namo namo bamlushaya vyadhine nanam vadaye namo namo halikeshayo pavitine pushtanam vadaye namo namo bhavasya hetye jagatam vadaye namo namo rudraya tatavine khetranam padaye namo namo sotaya hantya yavananam padaye namo namo rohitaya stapataye vrikshanam padaye namo namo mantrine vanijaya chakshanam padaye namo namo bhuvantaye varivaskrata aushadinam padaye namo nama ucche goshaya kandayate patrinam padaye namo nama krishnavetaya thavate sattvanam padaye namaha namassahamanaya nivyadhina avyadhininam padaye namo nama kakubhaya nishangine esthenanam padaye namo namo nishangina ishudhimate taskaranam padaye namo namo vanchate parivanchate stayonam padaye namo namo nicherave paricharayaranyanam padaye namo namo sekavibhyo jigagam chadhyomasnatam padaye namo namo simadhyo nakkancharavya prakrantanam padaye namo namo ushtishire giricharaya kulanchanam padaye namo namo ishomadhyo dhanvavibhyascha vo namo namo adhanvanebhya pratidadhanebhyascha vo namo namo ayachadhyo visrujabhyascha vo namo namo syadhyo vityadhyascha vo namo namo asinebhya shayanebhyascha vo namo namo svapadhyo jagrabhyascha vo namo namo tishtadhyo dhavadhyascha vo namo namo savabhyasavapadibhyascha vo namo namo ashvebhyo svapadibhyascha vo namaha nama avyadhini ebhyo vimidhyante vyascha vo namo namo ugadavyatrigum hatibhyascha vo namo namo gritsebhyo gritsavadibhyascha vo namo namo vrate ebhyo vratapadibhyascha vo namo namo ganebhyo ganapadibhyascha vo namo namo virupebhyo vishwarupebhyascha vo namo namo mahatyah chullakebhyascha vo namo namo ratibhyo ratebhyascha vo namo namo rate ebhyo radapadibhyascha vo namo namo sena abhyasenanibhyascha vo namo namah chatrubhyasanglahetrubhyascha vo namo namastakshadyodatakarebhyascha vo namo namah kulalebhyakarmarebhyascha vo namo namah punyashtebhyo nishadebhyascha vo namo namo ishukrabhyo dhanvakrabhyascha vo namo namo mrigayubhyashvanibhyascha vo namo namo swabhyashvapadibhyascha vo namaha namo bhavaya cha rudraya cha nama sarvaya cha pashupataye cha namo nilagrivaya cha shritikandhaya cha nama kavarnine cha yuktakeshaya cha nama सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेरुष्टवाय चेशुमते च नमो हस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीघ्राय च नमः ओर्भ्याय च वत्स्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धयाय च नमः सोऽप्याय च व्रतसज्ञाय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः लोक्याय च वचान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय च वविन्धते च नमो वल्मिने च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च अनन्याय च नमो नष्टवे च प्रवशाय च नमो धूताय च प्रयताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नेप्याय च नमः सोऽद्याय च सरस्याय च नमो नात्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः चङ्गाय च पशुपतये च नमः उङ्ग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तेत्याय च कोल्याय च नमः भाग्याय च भाग्याय च नमः प्रजरणाय चोत्तरणाय च नमः आसाद्याय च लाद्याय च नमः षष्ट्याय च वेण्याय च नमः चिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः गवर्णिने च वलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः षष्ट्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ओर्भ्याय च सोऽर्भ्याय च नमः पन्याय च वर्णसत्याय च नमो भगुरमाणाय चाभिज्ञते च नमः आखिदते च रक्षिदते च नमो वक्रिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षेदकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसत्पदे दरिद्रनीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चनाममत् याते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयानो मृणजीवसे इमागुम् रुद्राय तवसे कवर्दिने हयत्तेराय प्रवरामहे मतिम् यथा नश्यमशद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् प्रणोरुद्रोतनोमयस्कृते क्षयत्वेराय नमसा विदेमते यच्चञ्चयोश्च मनुरायजे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्वकम् मान उक्षन्तमुतमानमुक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो मदिर्हविष्मन्तो नमसा विदेमते आराते गो न उलवोरुषन्ये क्षयत्वेराय सं नमस्मेते अस्तु रक्षा च नो अरिच देव प्रो यदा च नः शर्व यच्च निवराः सुहिश्रुतम् गत्त सद निवानम् मृगन्न भीममुपहत्तमुग्रम् मृगाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परयो रुद्रस्य हेतुर्मृणत्वपरित्रेशस्य दुर्मतिरगायोः अवस्थिरामगमध्यस्तनुष्वमीर्वस्तोकाय जनयाय मृणया मेदुष्टमशिवतमशिवो न सुमया भव परमे वृक्ष आयुधन्निदाय कृत्तिम् वचा न आचर विनाकम् विम्रदागहे विगिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगो हेतयोज्यमस्पन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः ताशामेशानो भगव पराशेनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभोम्या शेषागुम् सहस्रयो जने वधन्वानि तन्वसे अस्मिन् महत्यर्णवेन्तरिक्षे भव अदे नीलग्रीवाशति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशति कण्ठादिवगो रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयोभिषिका सक्कवर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विमतो जनान् ये पताम् परिरक्षय ऐलवृदायव्यदः ये तीर्थानि प्रचलन्ति शृकावन्तो निषङ्गिणः य एतावन्तस्य भूयागुम् सश्च दिशो रुद्रामितस्तिरे तेषागुम् सहस्रयो जने वदन्वानि तन्मसे namo rudrebhyo ye prithivyam ye antarikshe ye divye shamannam vato varsham shavastebhyo dasha prache dasha dakshina dasha pratiche dasho deche dasho dvatebhyo namaste no mrinayanto teyam dvishmo yashyano dveshtitam vojam vedadami trimvakam yajamahe sugandhim pashtivardhanam arvalukami vavandhanam pratyon mukshe amamrita ate yo rudra aknam yo apsuya oshadeshaya rudra vishvamuvana deveshadasvai rudraya namo astu yete sahasramayutam pacha pratyor matyaya hantave tanyagyasya mayaya sarvanavaya jamahe mrityave swaha mrityave swaha pranayanam gandhilati rudra avishantakah tenanena apyayasva namo rudraya vishnave mrityarme pahi tamashto hiyasya shushudanvayo vishvasya kshayati vesajasya yakshvaa maheso manasaya rudram namo hirdevamasuram duvasya ayam me hasto bhagavan ayam me bhagavattaraha ayam me vishvave chayo yagum shiva vivakshanaha om shanti 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 om agnavishto sajosa seva vandhantu vangiraha dhumnair vaje bhiragatam vajascha me prasavascha me prayatischa me pratitischa me netischa me kratoscha me swarascha me shlokascha me shravascha me shrutescha me jyotescha me suvascha me pranascha me panascha me vyanascha me swascha me cittam ca mahadhitam ca me vakcha me manascha me chakshuscha me shrotram ca me dakshascha me balam ca maojascha me sahascha ma ayuscha me jaracha ma atmacha me tanoscha me sharmacha me varmacha me ingani ca me sthani ca me parogumsi ca me shariraani ca me jaishtyam ca maadhipatyam ca me manyoscha me bhamascha me mascha me mbhascha me jema ca me mahima ca me varima ca me pratima ca me varshma ca me draguya ca me vriddham ca me vriddhyascha me satyam ca me shraddha ca me jagaccha me dhanam ca me vashascha me tvishascha me kreeda ca me modascha me jatam ca me janishyamanam ca me soktam ca me sukrutam ca me vittam ca me vedyam ca me bhutam ca me bhavishyaccha me sugam ca me supadam ca maruddham ca maruddhischa me kluptam ca me kluptischa me matischa me sumatischa me shan ca me mayascha me priyam ca me nu kamascha me kamascha me somanasascha me భద్రం చ మే శ్రేయశ్చ మే వస్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధత్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే స్వేయం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే శోషా చ మే సుదినం చ మే ఓర్చ మే సోనృత చ మే పయశ్చ మే రతశ్చ మే ఘృతం చ మే మధు చ మే సగ్ధిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మఔద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కోయవాశ్చ మేనం చ మే శుచ్చ మే విహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే కల్వాశ్చ మే గోధూమాశ్చ మే మధురాశ్చ మే ప్రియంగవశ్చ మేణవశ్చ మే శ్యామాకాశ్చ మే నివారాశ్చ మే అశ్వాచ మే మృత్తికాచ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే తపశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మఆపశ్చ మే వేరుధశ్చ మఔషధయశ్చ మే కృష్టపచ్యం చ మే కృష్టపచ్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మఏమశ్చ మఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మఇంద్రశ్చ మే సోమశ్చ మఇంద్రశ్చ మే సవితా చ మఇంద్రశ్చ మే సరస్వతీ చ మఇంద్రశ్చ మే పూషా చ మఇంద్రశ్చ మే బృహస్పతిశ్చ మఇంద్రశ్చ మే మిత్రశ్చ మఇంద్రశ్చ మే వరుణశ్చ మఇంద్రశ్చ మే త్వష్టా చ మఇంద్రశ్చ మే ధాతా చ మఇంద్రశ్చ మే విష్ణుశ్చ మఇంద్రశ్చ మే శ్వినౌ చ మఇంద్రశ్చ మే మరుతశ్చ మఇంద్రశ్చ మే విశ్వే చ మే రేవాయింద్రశ్చ మే పృథివీ చ మఇంద్రశ్చ మేంతరిక్షం చ మఇంద్రశ్చ మే ద్యౌశ్చ మఇంద్రశ్చ మే దిశశ్చ మఇంద్రశ్చ మే పూషా చ మఇంద్రశ్చ మే ప్రజాపతిశ్చ మఇంద్రశ్చ మే అగుంశుశ్చ మే అశ్విశ్చ మే దాభ్యశ్చ మే ధిపతిశ్చ మ ఉపాగుంశుశ్చ మేంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంతే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మే త్రిగ్రాహ్యాశ్చ మైంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్పతీయాశ్చ మే మాహేంద్రశ్చ మఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే
पौष्णश्च मे पार्थिवतश्च मे आयोजनश्च मे इद्मश्च मे बर्हिश्च मे वेदश्च मे दृष्टयाश्च मे सुतश्च मे चमसाश्च मे क्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेदं च मे हविर्दानं च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे ववृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयो वृष्ट्या बृहद्दगन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे द्वित्यवाच्च मे द्वित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च म उक्षा च मे वशा च म ऋषभश्च मे मेहश्च मे नद्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पता प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविपुंसतिश्च मे त्रयोविपुंसतिश्च मे पञ्चविपुंसतिश्च मे सप्तविपुंसतिश्च मे नवविपुंसतिश्च म एकत्रिपुंसच्च मे त्रयस्त्रिपुंसच्च मे चतुस्रश्च मे षौ च मे द्वादश च मे षोडश च मे विपुंसतिश्च मे चतुर्विपुंसतिश्च मे अष्टाविपुंसतिश्च मे द्वात्रिपुंसच्च मे षत्रिपुंसच्च मे चत्वारिपुंसच्च मे चतुश्चत्वारिपुंसच्च मे अष्टाचत्वारिपुंसच्च मे वाजश्च प्रसवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि शगुंसि षद्विश्वे देवासोक्तवाच पृथिवीमा धर्मा माहिपुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यातगुम् दृश्रोषेण्या मनुष्येभ्यस्तम् मा देवा अवन्तु शोभाय पितरो नु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छयोरावृणीमहे
गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशेरशापुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् अतामृतत्वस्येशानः यदन्नेनातिरोहते एतावानस्य महिमा अथोज्यायागस्य पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वौ दैत्पुरुषः पादो स्नेहाभवात्पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत असन्तो अस्यासेदाज्यम् ग्रीष्म यद्मः शरद्धविः सप्तास्यासन् परिदयः त्रिसप्त समिद कृताः देवा यज्ञज्ञम् तन्वानाः अभग्नन् पुरुषम् पशुम् तम् यज्ञम् वरेषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्मात् यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्मात् यज्ञात् सर्वहुतः रजस्सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चो भयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कदिदाव्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यकृतः ओरो तदस्य यद्वैष्यः पद्यागुम् शोद्रो अजायत चन्द्रमा मनसो जातः चक्षोशौर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोऽद्यो समवर्तत पद्याम् वो निर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार चक्रप्रविद्वान् प्रदिशश्च दस्रः तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकं महिमानस्य चन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैर च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवते नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य देराः परिजानन्ति योनिम् मरीचैनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः ऊर्वो यो देवेभ्यो जातः नमो रचाय ब्राह्मणे रचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे हेश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मणिषाणा अमुम् मणिषाणा सर्वम् मणिषाणा तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये नैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु वेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वाग्रिमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणागुम् राजा अप्येषागस्तपतिर्हतः अथो मातातो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हता श्वेताभिः सह सर्वे हतः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुयमस्य जम्भयोः आददामि तथा हि तत् कण्पण्मसि ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः